इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका कामना झाः। आदौ मुख्य वार्ताः। भाजपायाः वरिष्ठो नेता देवेन्द्र फडणवीसः महाराष्ट्रराज्यस्य अग्रिमः मुख्यमन्त्रिरूपेण श्वः मुम्बईनगरस्य आजाद उद्याने शपथवचनं गृह्णीयात्। भारतेन विकासशीलराष्ट्राणाम् उत्तम संयोगार्थं वैश्विक वित्तीय व्यवस्थायां परिवर्तनस्य आवाहनं कृतम्। अमृतसरे स्वर्णमन्दिरस्य प्रवेशद्वारे पंजाबराज्यस्य पूर्व उपमुख्यमन्त्रिणः सुखबीर सिंह बादलस्य उपरि हत्यायाः प्रयासः अद्य अभवत्, यस्मिन् सः अक्षतः एव अस्ति। अद्य अंडर 19 तस्याम एशिया चषक क्रीडायां भारतेन शारजाह क्रिकेट क्रीडांगणे संयुक्त अरब अमीरातस्य असमूहस्य एकदिवसीय अंतरराष्ट्रीय क्रिकेट क्रीडायां 10-2 पराजितम्। अपि च क्रीडायां अद्य सायं ओमान देशस्य मस्कट नगरे पुरुषाणां कनिष्ठ हॉकी एशिया चषक क्रीडायाः अंतिम क्रीडायां भारतीय दलं पाकिस्तान दलं सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। भाजपायाः वरिष्ठो नेता देवेन्द्र फडणवीसः महाराष्ट्रराज्यस्य अग्रिमः मुख्यमन्त्री भविष्यति। सः श्वः तृतीयवारं महायुति संयुतेः मुख्यमन्त्रिरूपेण शपथवचनं गृह्णीयात्। मुम्बईनगरे आयोजिते अस्मिन् कार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी इत्यादयः महासंयुतेः वरिष्ठनेतारः उपस्थिताः भविष्यन्ति। अद्य मुम्बईनगरे भारतीय जनता पार्टी इति दलस्य प्रमुखसमित्याः उपवेशने सः केन्द्रीय वित्तमन्त्रिणः निर्मला सीतारमण इत्यस्याः गुजरातस्य पूर्व मुख्यमन्त्रिणः विजय रूपाणी इत्यस्य च उपस्थितो विधायकी दलस्य नेता चितः।
नवनिर्वाचित विधि मंडल के नेता के नाम में देवेंद्र फडणवीस जी का मेरा बधाई। चुनाव के दौरान महाराष्ट्र के 14 करोड़ जनता जनार्दन के डिसीशन पूरे भारत के लिए एक संदेश है।
विधायक चंद्रकांत पाटिल, सुधीर मुनगंतिवार च श्री फडणवीस से नाम प्रस्तावितवंतो, यस्य समर्थन नम सर्वे ही नवनिर्वाचित ही विधायक ही कृतम्। भारतेन विकासशील राष्ट्राणाम् उत्तम संयोगार्थं वैश्विक वित्तीय व्यवस्थायां परिवर्तनस्य आवाहनं कृतम्। अन्ताराष्ट्रिय वित्तीय संस्थासु वैश्विक दक्षिणस्य अधिकं प्रतिनिधित्वं बहुपक्षीय विकास बैंक इत्येतेषां MDBS वित्तपोषणं वर्धितुं च बलं दत्तम्। संयुक्त राष्ट्र संघस्य उपवेशने प्रवदन्ति वित्त मंत्रालयस्य आर्थिक कार्य विभागस्य परामर्श द भारतस्य सुश्री गीतु जोशी विकासशील देशानाम् आवश्यकतायाः प्रति अधिकं प्रतिक्रियाशीलस्य वित्तीय व्यवस्थायाः आवश्यकतायाः उपरि बलं दत्तवती। श्री जोशी भारतस्य मानव केन्द्रित विकास प्रतिरूपं वैश्विक दक्षिणस्य उदाहरण रूपेण प्रकाशितं यत् 25 कोटि जनाः निर्धन रेखा तह बही उत्थापिताः। अमृतसरे स्वर्णमन्दिरस्य प्रवेशद्वारे पंजाबराज्यस्य पूर्व उपमुख्यमन्त्रिणः सुखबीर सिंह बादलस्य उपरि हत्यायाः प्रयासः अद्य अभवत्, यस्मिन् सः अक्षतः एव अस्ति। श्रीबादलः श्री अकाल तख्त द्वारां दत्तां सेवां सेवमानः आसीत्। अद्य यदा प्रहारस्य प्रयासाः जाताः तदा सह प्रवेशद्वारे व्हीलचेयर इति चक्र चालिकायां स्थिताः आसीत्। नारायण सिंह इति नामनः जनाः एव तं भुशुण्डिं प्रहारं कर्तुं प्रयतितवान्। सः SGPC इति सेवादारैः सुरक्षाकर्मचारिभिः च अधिगृहीतः। प्रहारे गुलिका द्वारस्य भित्तिम् आहतवान्। इदानीम् अमृतसर आरक्षी आयुक्तेन गुरप्रीत सिंह भुल्लर इत्यनेन उक्तं यत् श्री बादल वर्यस्य हत्यायाः प्रयासः आततायिन नारायण सिंहेन कृताः, सः च गृहीतः अस्ति। पूर्व सांसद श्रीमती हरसिमरत कौर बादल श्रीबादल से धर्मपत्नी च स्वर्ण मंदिर संप्राप्तवन्तो। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमंत्री नरेन्द्र मोदी नौसेना दिवसस्य अवसरे भारतीय नौसैन्य कर्मिभ्यः अभिवादनं कृतवान्। एकस्मिन् सामाजिक अन्तर्जालीय संदेशे श्रीमोदी उल्लेखितवान् यत् नौसेनायाः वीर कर्मचारिणः अदम्य साहसेन समर्पणे च देशस्य समुद्राणां रक्षणं कुर्वन्ति इति। सः अवदत् यत् तेषां प्रतिबद्धता राष्ट्रस्य सुरक्षा संरक्षा समृद्धिं च सुनिश्चितं करोति। ततः परं श्रीमोदी अवदत् यत् भारतीयाः नौसेनायाः समृद्धे समुद्रीय इतिहासस्य विषये महत् गर्वम् अनुभवन्ति। रक्षामंत्री राजनाथ सिंह नौसेना दिवसस्य अवसरे भारतीय नौसेनायाः सैनिकेभ्यः परिवारेभ्यः च शुभकामनाः प्रदत्तवान्। एकस्मिन् सामाजिक पटलीय संदेशे श्री सिंह अवदत् यत् भारतीय नौसेना राष्ट्रीय सुरक्षा वस्तुकलायां भारतस्य समुद्री सुरक्षायाः रक्षणे च महत्वपूर्णः स्तम्भः अस्ति। सः अवदत् यत् हिन्द महासागर क्षेत्रे प्राधान्य सुरक्षा सहभागी प्रथम प्रतिवादी च इति भारतस्य पदक्षेपः पुनः पुष्टयन् सुरक्षिताः स्थिरः च समुद्राः सुनिश्चित्य नौसेना महत्वपूर्णां भूमिकां निर्वहन्ति। सञ्चारमन्त्रिणा ज्योतिरादित्य सिन्धिया इत्यनेन उक्तं यत् 19-2000 वर्षे BSNL इत्यस्मै सर्वकारेण विस्तारितेन पुनरुत्थान संग्रहणेन दूरसञ्चार उद्यमं हानिकार संस्थातः लाभप्रदान संस्थायां परिणतम् अद्य लोकसभायां पूरक पत्राणाम् उत्तरं दत्त्वा श्री सिंधिया अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे BSNL इत्यस्याः 50,000+ कर्मचारिणां पालनं सर्वकारस्य दायित्वम् अस्ति। भारतीय अंतरिक्ष अनुसंधान संघटनं प्राप्त विसंगति कारणात् श्वः अपराह्ने 12:04 श्रीहरिकोटायाः सतीश धवनांतरिक्ष केन्द्रात् PSLVC-59 Proba-3 इत्येतस्य प्रक्षेपणं पुनर्निर्धारितम्। यूरोपीय अंतरिक्ष संस्थायाः Proba-3 प्रक्षेपो उपक्रमः भारतीय अंतरिक्ष अनुसंधान संघटनस्य न्यू स्पेस इंडिया लिमिटेड इत्यस्याः वाणिज्यिक शाखायाः संयोगेन भवति। केन्द्रीय ग्रामीण विकास मन्त्रिणा शिवराज सिंह चौहानेन उक्तं यत् प्रत्येकस्य निर्धनस्य कृते सुदृढ गृहं प्रदातुं सर्वकारेण 95.2 crore यावत् गृहाणि अनुमोदितानि। अद्य नवदिल्ल्यां वार्ताहर सम्मेलनं सम्बोधयन् सः अवदत् यत् आगामीषु 5 वर्षेषु 2 crore+ गृहाणि निर्मीयन्ते। सः अवदत् यत् प्रधानमन्त्री आवास योजना ग्रामीण इत्यस्याः योजनायाः अन्तर्गतम् 38,00,000 यावत् गृहाणि आवंटितानि सन्ति, येषां कृते 600,10,000 crore मूल्यानाम् अनुमोदनं जातम् अस्ति। अद्य Under-19 इत्यस्याम् एशिया चषक क्रीडायां भारतेन शारजाह क्रिकेट क्रीडांगणे संयुक्त अरब अमीरातस्य असमूहस्य एकदिवसीय अन्तर्राष्ट्रिय क्रिकेट क्रीडायां 10-2 पराजितम्। हॉकी इति क्रीडायां अद्य सायं ओमान देशस्य मस्कट नगरे पुरुषाणां कनिष्ठ हॉकी एशिया चषक क्रीडायाः अन्तिमं क्रीडायां भारतीय दलं पाकिस्तान दलं सम्मुखी करिष्यति। प्रसारणं सायं 8:30 भविष्यति। इति वार्ताः।